अध्यास्यात्मनि सर्वभावभवनं शुद्धस्वभावच्युतः सर्वत्राप्य निवारितो गतभयः स्वैरं पशुः क्रीडति स्याद्वादी तु विशुद्ध एव लसति स्वस्य स्वभावं भरादारूढः परभाव भाव विरह व्यालोकनिष्कम्पितः।